गुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ अथात्मानगुं शिवात्मानगुं श्रीरुद्ररूपं ध्यायेत् शुद्धस्फटिकसङ्गाजं त्रिनेत्रं पञ्चवक्त्रकम् गङ्गाधरं दशभुजं सर्वाभरणभूषितम् नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् व्याघ्रचर्मोत्तरीयं च भरेण्यमभयप्रदम् कमण्डलवक्षसूत्राणां धारिणं शूलपाणिनम् ज्वलन्तः पिङ्गलजटाशिखामुद्योतधारिणम् वृषस्कन्धसमारूढं गुमादेहारथधारिणम् अमृतेनावृतं शान्तं दिव्यभोगसमन्वितम् दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् रुद्रस्नानार्चनाभिषेकविधिं व्याख्यास्यामः प्रजनने ब्रह्मातिष्ठतु पादयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्वोरिन्द्रस्तिष्ठतु जठरे अग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोर्वायुस्तिष्ठतु नयनयोश्चन्द्रादित्यौ तिष्ठेताम् कर्णयोरश्विनौ तिष्ठेताम् ललाटे रुद्रास्तिष्ठन्तु मूर्ध्न्यादित्यस्तिष्ठन्तु शिरसि महादेवस्तिष्ठतु शिखायां भावदेवस्तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरुतशूली तिष्ठतु पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् सर्वतो वायुस्तिष्ठतु ततो बहिः सर्वतोऽग्निर्ज्वालामाला परिहृतस्तिष्ठन्तु सर्वेष्वङ्गेषु सर्वा देवता यथा स्थानं तिष्ठन्तु माहुं रक्षन्तु अग्निर्मे वाचिश्रितः वाग्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि चन्द्रमम मे मनसि श्रितः मनो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि दिशो मे श्रोत्रे श्रिताः श्रोत्रगुं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि आपो मे रेतश्रिताः रेतो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पृथिवी मे शरीरे श्रिता श्रीरघुं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि कोशधिवनपदयो मे लोममुश्रिताः लोमाने हृदये हृदयं महि अहमृते अमृतं ब्रह्मणि इन्द्रो मे बलेश्वितः बलगुं हृदये हृदयं महि अहमृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रितः मूर्धा हृदये हृदयं महि अहमृते अमृतं ब्रह्मणि ईशानो मे मन्यो श्रितः मन्युर्हृदये हृदयं महि अहमृते अमृतं ब्रह्मणि आत्मा मम आत्मनि श्रितः आत्मा हृदये हृदयं महि अहमृते अमृतं ब्रह्मणि पुनर्म आत्मा पुनराजुरागात् पुनः प्राण पुनराकूतमागात् वैश्वानर रश्मिभिर्वावृधानः अन्तस्थस्थमृतस्य गोपाः अस्य श्रीरुद्राध्याय प्रथमामन्त्रस्य अघोरऋषिः अनुष्टुप्छन्दः सङ्कर्षणमूर्तिस्वरूपो योगावादित्य परमपुरुष स एष रुद्र देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्ब सदाशिव प्रसादसिद्ध्यर्थे जपे विनियोगः अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः दर्शपूर्णमासात्मने तर्जनीभ्यां नमः चातुर्मास्यात्मने मध्यमाभ्यां नमः निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः सर्वकृत्वात्मने करतलकरपृष्ठाभ्यां नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखाजीवशत् निरूढपशुबन्धात्मने कवचायुम् ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् सर्वकृत्वात्मने अस्त्राय भट् भूर्भुवत्स्वरोमिति दिग्बन्धः ध्यानम् आकाशतालनभस्थलान्तभुवन ब्रह्माण्डमाविस्फुरत् ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तावृतैः अस्तोकाप्लुतमेकमिंशमनिशम् रुद्रानुपाकाञ्जपन् ध्याये दीक्षितसिद्धये ध्रुवपदम् विप्रोभिषिञ्चे शिवम् ब्रह्माण्डौ याप्तदेहाभसित किमरुषा भासमाना भुजङ्गैः कण्ठे तालाष्टपर्दाः कलितशशिकला चण्डकोदन्महस्ताः त्रियक्षा रुद्राक्षमाला प्रकटितविभवा शम्भवा मूर्तिभेदाः रुद्रा श्रीरुद्रसूक्त प्रकटित विभवान प्रयजन्तु सौख्यम् ॐ गणानां त्वा गणपति गुं हवामहे कविं कवीनामुपमश्रवत्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणत्वदानश्रृण्वन् ओतिः सीदसादनम्। ब्रह्मपतये नमः। ॐ शञ्च मे मनश्च मे प्रजञ्च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भक्तञ्च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे श्रविणञ्च मे यन्त्रश्च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च मे महश्च मे संयुक्त मे ज्ञातञ्च मे शोश्च मे प्रसूश्च मे धीरञ्च मे लयश्च मरुतञ्च मे अमृतञ्च मे जक्ष्मञ्च मे नामजश्च मे जीवातुश्च मे दीर्घायुश्च पञ्च मे नित्रञ्च मे